तृतीय स्कंद
अथ विंशोध्याय ब्रह्मा जी की रची हुई अनेक प्रकार की सृष्टि का वर्णन। सौनक उवाच महिम प्रतिष्ठा मध्यस्य सौते स्वयंभुव मनु कन्यन्वतिष्ठ द्वाराणि मार्गाया वरजन्मनाम छत्ता महाभागवत कृष्णस्य कांतिक सुहृद यस्तत्याजाग्रजम् कृष्णे सापत्यमघवानिति द्वैपायनादन्वरो महित्वे तस्य देहजः सर्वात्मना श्रुतः कृष्णम् तत्परश्चाप्यनुव्रतः किमन्वपृच्छन् मैत्रेयम् विरजास्तीर्थसेवया उपगम्य कुशावर्तम् आसीनम् तत्त्ववित्तमम् तयोः संवदतो सुत प्रवृता यमला कथा आपो गांगा इवाघग्निर्हरेः पादाम्बुजाश्रयः तानः कीर्तय भद्रं ते कृतन्योदार कर्मणः रसज्ञ कोन तृप्येत हरिलीलामृतं पिबन् एवमुग्रश्रवः पृष्ठ ऋषिभिर्नैमिषायनैः भगवत्तर्पिताध्यात्मस्तानाः श्रेतामिति सुत उवाच हरेर्धृतक्रोडतनुः स्वमायां निशम्य गोरुद्धरणं रसातलात् लीलां हिरण्याक्षमवज्ञया हतम् संजात हर्षो मुनिमा भारत। विद्रोवाच प्रजापति पति सृष्ट्वा प्रजा सर्गे प्रजापति किमारभत मे ब्रह्मन् प्रब्रूह्य व्यक्त मार्गवित् ये मरीच्यादय विप्राजस्तु सायंभुव मनु ते वै ब्रह्मण आदेशात् कथम एतद् भावयन् सद्वितीयः किम सृजन् स्वतंत्रा उत कर्मसु आहोषित संघता सर्व इदं स्म समकल्पयन्। मैत्रेवाच दैवेन दुर्वितर्केण परेण निमिषेण च जातक्षोभात् भगवतो महानाशित गुणत्रयात् रजः प्रधानान् महत स्त्रीलिङ्गो दैव चोदितात् जातः ससर्ज भूतार्दिर्व्यदादिनि पञ्चशः तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् संघत्य दैवयोगेन हैमम् अण्डमवासृजम् सो सैष्टाब्धिसलिले अंडकोशो निरात्मक साग्रम वै वर्षसहस्रम अन्ववासितमीश्वर तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् योऽनुविष्टो भगवता यः शेते सलिलाशये लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वयं ससर्जच्छाया विद्याम् पञ्चपर्वाणमग्रतः तामिश्रम् अन्धतामिश्रम् तमो मोहो महात्मः विससर्जात्मनः कायम् नाभिनन्दस्तमोमयम् जगृहुर्जक्षरक्षांसि रात्रिम् क्षुत्रिर्समुद्भवाम् क्षुत्रिर्भ्यामुपसृष्टास्ते तम् जग्धुमभिदुद्रुः मा रक्षतैनम् जक्षध्वम् इत्युचुः क्षुत्रिदर्दितः देवस्तानाः संविघ्नो मामाम् जक्षत रक्षत अहो मे जक्ष रक्षांसि प्रजाजूयम् बभूविथ देवताः प्रभया आया दिव्यान् प्रमुखतो सृज ते अहर्षुर्देवयन्तो विसृष्टाम् ताम् प्रभामः देवो अदेवान् जघ्नत सृजति स्माति लोलुपान् तयेनम् लोलुप्तया मैथुनायाभिपेदिरे ततो हसंस भगवान् असुरय निरपत्रपै अन्वीयमानस्तरसा क्रुद्धो भीतः परापतम् स उपब्रजवर्धम् प्रपन्नार्ति हरम् हरिम् अनुग्रहाय भक्तानाम् अनुरूपात्मदर्शनम् पाहि माम् परमात्मंस्ते प्रेषणेन सृजम् प्रजाः त इमा जभितुम् पापा उपाक्रामन्ति माम् प्रभो त्वमेकः किल लोकानाम् क्लिष्टानाम् क्लेशनाशनः त्वमेकः क्लेशदस्ते सम् अनाशन् न पदाम् तव यो धार्यास्य कार्पण्यम् विविक्ताध्यात्मदर्शन विमुञ्चात्मतनम् घोरामित्युक्तो विमुमोचः तम् क्वणचरणाम् भोजाम् मदभिवल्लोचनाम् कांसीकलापबिलसद्दुक्कुलच्छन्नरोधसम् अन्योन्यश्लेषयोत्तुङ्ग निरन्तर्पयोधराम् सुनासाम् सुद्विजाम् स्निग्धाः श्लीलावलोकनाम् गुहन्तीम् मृळयात्मानम् नीलालकबरूथिनीम् उपलभ्यासुराधर्म सर्वे सम्मुहुस्त्रियम् अहो रूपमहोधर्जम् अहो अस्यानवम् वयः मध्ये कामयमानानाम् कामेव विसर्पति वितर्कयन्तो बहुधा ताम् सन्ध्याम् प्रमदाकृतिम् अभिसम्भाव्य विसम्भात् पर्यपृच्छन् कुमेधसम् काशिकस्याशिरम्भोरु कोवार्थस्तत्र भामिनी रूपद्रविणपाण्येन दुर्भगान्नो विवादसे यावा काचित्वमबले दृष्ट्या संदर्शनम तव उत्सूनो शिक्षमाणानाम कंदुक क्रीड़या मनः नैकत्र तेजयति शालिनी पादपद्मं घ्नन्त्या मुहुः कर्तलेन पतत् पतंगम् मध्यम विशीदति बृहत्स्तनभार भीतम् शान्तेव दृष्टिरमला सुशिखा समूहा इति सायंतनीम् संध्याम असुरः प्रमदायतिम् प्रलोभयन्तीम् जगृहुर्मत्वा मूढधियः स्त्रियम् प्रहस्य भावगम्भीरम् जिघ्रन्त्यात्मानम् आत्मना कन्त्या ससर्ज भगवान् गन्धर्वाप्सरसाम् गणान् विससर्ज तनुम् वै ज्योत्स्नाम् कान्तिमतीम् प्रियाम् तैव चाददुः प्रीत्या विश्वा वसुपुरोगमः सृष्ट्वा भूतपिशाचंश्च भगवानात्मतन्द्रिणाम् दिग्वाससो मुक्तकेशान् वीक्ष्य च मीलयदृशौ जगृहुस्तद्विसृष्टान्ताम् जिम्भणाख्याम् तनुम् प्रभो निद्रामिन्द्रियविक्लेदो यजा भूतेषु दृश्यते येनोच्छिष्टान् धर्ष्यन्ति तमुन्मादम् प्रचक्षते ऊर्जस्वन्तम् मन्यमाना आत्मानम् भगवानजः साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः त आत्मसर्गम् तम् कायम् पितरः प्रतिपेदिरे साध्येभ्यश्च पितृभ्यश्च कवयो जन्वितन्वते सिद्धान् विद्याधरांशैव तिरोधानेन यो सृजत् तेभ्यो अदात्तम् आत्मानम् अन्तर्धानाख्यमद्भुतम् स किम् नरान् किम् पुरुषान् प्रत्यात्मेना सृजत् प्रभु मानयन् आत्मनात्मानम् आत्माभासम् विलोकयन् ते तु तज्जगृहूरूपम् त्यक्तम् यत्परमेष्टिना मिथुनी भूय गायन्तस्तमेव शशिकर्मभिः सर्गेऽनुपचिते क्रोधात् उत्ससर्जः तद्वपुः ये अहियन्तामुतः क्लेशा अह्यस्तेऽङ्ग जगिरे सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धरः स आत्मानम् मन्यमानः कृत्यकृतमिवात्मभुः तदा मनून् ससर्जन्ते मनसा लोकभावनान् तेभ्यः स्वत्यसृजत् स्वीयम् पुरम् पुरुषमात्मवान् तान् दृष्ट्वा ये पुरा सृष्टा प्रशशंसुः प्रजापतिम् अहो एतज्जगत्स्रष्टः सुकृतम् वतते कृतम् प्रतिष्ठिता क्रिया जस्मिन् साकम् अन्नमदामहे तपसा विद्यया युक्तो योगेन सुसमाधिना ऋषिर्हृषिकेश ससर्जाभिमतः प्रजा तेभ्यश्चैकैकश स्वस्य देहस्यांशमदाद् अजः यत्तत्समाधिजोगर्धि तपो विद्या विरक्तिमात् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां तृतीये स्कन्धे विंशोऽध्यायः।